गुरुब्रह्म गुरुविष्णु गुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र आत्मनः लक्षणं तत्र आत्मनः लक्षणं ज्ञानाधिकरणम् आत्मा इति उक्तं तत्र अधिकरणम् इति अस्ति इति कृत्वा तत्र आधाराधेयभावः अस्ति ज्ञानं तत्र आधेयः अस्ति अपि तत्र आत्मा इति अधिकरणम् इति अस्ति तयोः मध्ये तत्र समवायसम्बन्धः यतोहि ज्ञानम् इति बुद्धिः गुणः अस्ति गुणः द्रव्ये तत्र समवायसम्बन्धेन तिष्ठति इति वयं सर्वे जानीमः किन्तु तत्र ज्ञानस्य एकमेव अधिकरणं नास्ति इति वयं दृष्टवन्तः तत्र ज्ञानं महाकाले कालिकसम्बन्धेन भवति अतः तत्र द्वितीयाधिकरणम् आगतं प्रथमाधिकरणम् आत्मा द्वितीयाधिकरणं तत्र ज्ञानस्य तत्र महाकालः अपि यदा अस्माकं ज्ञानं भवति अयं घटः इति तर्हि अयं घटः इति ज्ञाने विषयः अस्ति तत्र गीता भगिनी तत्र वदतु तत्र अयं घटः इति ज्ञाने विषयः कः
आमाचार्य अत्र अयं घटः अत्र विषयः घटः अस्ति
विषयः घटः अस्ति अपि तत्र तत्र ज्ञानम् अस्ति अयं घटः विषयः अस्ति घटः तर्हि तत्र ज्ञानम् अपि तत्र विषयः तयोः मध्ये तत्र घटः तयोः मध्ये कीदृशसम्बन्धः
तयोः मध्ये विषयतासम्बन्धः
विषयतासम्बन्धः समीचीनं भगिनि हा तर्हि तत्र वयं पूर्वं पठितवन्तः तत्र ज्ञानं विषयतासम्बन्धेन विषये अत्र घटे तिष्ठति इति वयं दृष्टवन्तः अतः तृतीय अधिकरणम् आगतं तत्र घटः अथवा यः कोऽपि विषयः भवतु ज्ञानस्य विषयः यः कोऽपि भवतु सः विषयः ज्ञानस्य अधिकरणं भवति इति अस्माभिः दृष्टम् अतः तत्र ज्ञानस्य अधिकरणम् आत्मा भवति महाकालः अपि भवति अपि तत्र केवलं घटः एव अधिकरणम् इति नास्ति यः कोऽपि विषयः अतः तत्र अनेकानि वस्तूनि सन्ति लोके यदा तद्वस्तु विषयः भवति तदा तद्वस्तु ज्ञानस्य अधिकरणं भवति अतः तत्र अनेकानि अधिकरणानि सन्ति अतः तत्र अनेकानि अधिकरणानि सन्ति इति कृत्वा तत्र विषयतसम्बन्धस्य तत्र तस्मिन् विषये अग्रे किञ्चित् चर्चा काचित् चर्चा भवति नाम तत्र विषयतासम्बन्धस्य विषये तत्र मतद्वयमस्ति इति अग्रे पश्यामः किन्तु तत्र विषयतासम्बन्धस्य विवरणं तत्र कीदृशसम्बन्धः इति एव तत्र विषयतासम्बन्धः वृत्तिनियामकः अस्ति न वा इति विषये तत्र अस्माकम् अद्यतनपाठः भवति अपि तत्र मतभेदः वर्तते इति अपि अग्रे पश्यामः अस्तु तर्हि तत्र सम्बन्धानां वृत्तिनियामकत्वम् इति तत्र वृत्तिनियामकत्वम् इत्युक्ते किम् इति वयं किञ्चित् पठितवन्तः किन्तु ततः आरभ्य एव पठामः अद्यापि तर्हि तत्र नूतनतया तत्र के आगतवन्तः तत्र शोभा भगिनी नमस्कारः
नमस्ते महोदय
नमस्कारः भगिनि उषा भगिनी नमस्कारः
नमस्ते महोदय
नमस्कारः भगिनि मृणालिनी भगिनी नमस्कारः
नमस्कार
नमस्कारः भगिनि अशोक महोदय नमस्कारः
नमस्कारः महोदय
नमस्कारः अस्तु तर्हि तत्र पुस्तके एव वयं स्मः तत्र पुस्तके पेज् 63 इति अतः तत्र आरम्भे तत्र अस्तु तर्हि तत्र गतवर्गे वयम् एतत् पठितवन्तः तत्र तर्हि तत्र नीता भगिनी अग्रे एकवारं पठति वा भगिनि सम्बन्धानां वृत्तिनियामकत्वम् इति आरभ्य
सम्बन्धानां वृत्तिनियामकत्वं वृत्तिनियामकत्व अभावः च अत्र तृतीयाधिकरणता वर्णनाय विषयतासम्बन्धेन ज्ञानं घटे वर्तते इत्युक्तम् विषयेऽस्मिन् किञ्चित् विचार्यते घटः भूतले संयोगेन वर्तते इति अस्ति प्रत्ययः। एतादृशे प्रत्ययबलात् आधार आधेयभावः सिद्ध्यति इति ग्रन्थादौ उपपादितम्। तत्र घटः भारं निदधाति, भूतलं भारं वहति इति अपि उक्तम्। भारवहनलोचना, भारवहन आलोचना अधिकरणता, तादृशभारनिधान आलोचना आधेयता इत्यपि प्राक् उक्तम्।
हा समीचीनं, तर्हि किञ्चित् वदतु भगिनि तत्र।
तत्र तृतीय अधिकरणतायाः वर्णनम् अस्ति विषयतासम्बन्धः, यतोहि तत्र त्रयः तिस्रः अधिकरणता सन्ति, तत् कालिकसम्बन्ध कालिकसम्बन्धेन काले, समवायसम्बन्धेन आत्मनि, विषयतासम्बन्धेन घटे। तत्र
घटे विषये विषये समीचीनं,
घटे विषयसम्बन्धेन ज्ञानं वर्तते इति उक्तमस्ति। तत्र घटः भूतले अस्ति, तत् घटः भूतले संयोगेन वर्तते। प्रत्यय इत्युक्ते चक्षुषा ज्ञानम् अस्ति अस्माभिः।
प्रत्ययः तत्र न्यायशास्त्रे प्रत्ययः नाम ज्ञानम्,
ज्ञानमस्ति।
घटः प्रत्ययः नाम ज्ञानम्।
तत् घटः भूतले वर्तते संयोगेन, संयोगसम्बन्धेन वर्तते इति। तत् एतादृशप्रत्ययबलात् आधार आधेयभावः सिद्ध्यति इति ग्रन्थादौ उपपादितम्। तत्र आधार अस्ति, आधेय अस्ति इत्युक्ते अधिकरणता भूतले अस्ति, आधेयता घटे अस्ति, तत् आधार आधेयभावः अस्ति इति अपि उपपादितम् अस्ति।
अपि अत्र यथा भवती उक्तवती समीचीनं नाम तत्र एतद् ज्ञानं तत्र प्रत्यक्षज्ञानं खलु, चक्षुषा वयं पश्यामः तत्र भूतले अधिकरणता अस्ति, यतोहि तत्र भूतले एव सः घटः अस्ति खलु। अतः तत्र आधारः कः, आधेयः कः, तस्मिन् विषये कोऽपि संशयः नास्ति खलु। तत्र घटः तत्र अधिकरणम् अपि भूतलम् इति आधेयः इति कदापि वयं न वदामः खलु, यतोहि तत्र चक्षुषा पश्यामः, तत्र भूतलम् एव अधिकरणम् अपि घटः एव आधेयः।
तत्र घटः भारं निदधाति, भूतलं भारवहति इति अपि उक्तम्। तत्र भारवहन यत् कोऽपि भारवहनम् अस्ति तत् तत् कार्यं भूतलं करोति। घटः भारं निदधाति इत्युक्ते भारजनन इति वदामः चेत् भारजननं घटं करोति, घटः करोति, भूतलं भारवहनस्य कार्यं करोति इति चक्षुषा ज्ञानं वयं प्राप्नुमः। अत्र भारवहन आलोचना अधिकरणता, अत्र वयं वदामः भूतले अधिकरणता अस्ति, तत् अधिकरणा भारवहन आलोचना, तत् भारवहनस्य कार्यं यत् भूतलं करोति तत् अधिकरणता भारवहन आलोचना इति वयं वक्तुं शक्नुमः। तत् घटः भारं जनयति इत्युक्ते भारनिधान आलोचना घटं करोति, तत् भारनिधान आलोचना आधेयता घटे वर्तते इति अपि प्राक् उक्तम्।
समीचीनं समीचीनम्। अतः तत्र आधेयता वयम् आधेयः घटः अतः आधेयता घटे वर्तते, आधेयता नाम किम् इति पूर्वं तत्र आरम्भे तत्र भारनिधान आलोचना एव आधेयता इति प्रागुक्तं। समीचीनं भगिनि। अपि अधिकरणं तत्र भूतलम् अस्ति, तर्हि तत्र अधिकरणता भूतले अस्ति, अधिकरणता नाम किम् इत्युक्ते भारवहन एव तत्र, तादृश आलोचनम् एव तत्र अधिकरणता इति प्रागुक्तं। समीचीनं भगिनि। हा अस्तु, अतः तत्र आरम्भे एतादृशवर्णनं कृतमस्ति। हा इदानीं तत्र अस्माकं मूलविषयः किमस्ति, तत्र विषयतासम्बन्धेन ज्ञानं घटे वर्तते इति अत्र वयं चिन्तयामः। तत्र ज्ञानम् इति नीता भगिनी तत्र वदतु, ज्ञानं विषयतासम्बन्धेन घटे वर्तते इति उक्तं, तर्हि तत्र आदेयः कः, अधिकरणं किम्?
ज्ञानं विषयतासम्बन्धेन घटे वर्तते तत्र ज्ञानम् इति आधेयः घटः इति अधिकरणम्
अधिकरणं हा तर्हि तत्र अथ तत्रापि आधारादेयभावः अस्ति इति अस्माकं चिन्तनम् अस्ति खलु यतोहि ज्ञानमिति आधेयः घटमिति अधिकरणम् इति समीचीनं भगिनि हा अस्तु अग्रे सरामः तर्हि तत्र योगेन्द्रमोदी अग्रे पठति वा धन्यवादः भगिनि
ज्ञान्तु एतादृश उपपादनं बालबोधनाय एव उपयुज्यते यतोहि घटे रूपं समवायसम्बन्धेन वर्तते इत्यपि अस्ति प्रत्ययः तेन अपि आधार आदयभावः सिद्ध्यति परन्तु रूपं गुणः इति न तत् भारनिदानक्षमम् भारः गुरुत्वम् इति उच्यते तत् च गुरुत्वं गुण इति न त रूपे गुणभूते भवति कथं तर्हि रूपादि भारनिदानक्षमं भवेत् कथं वा घटः भाररूपभारं वहेत् अतः भारनिदानं भारवहनम् इति एतत् सर्वं बालबोधनाय एव ग्रन्थादौ लिखितम् यत् उपरितने
कष्टः अस्ति चेत् मा वदतु किन्तु तत्र किं वाक्यद्वयं वाक्यत्रयं स्वीकृत्य यावत् कर्तुं शक्नोति यतोहि तत्र भवान् तत्र केचन वर्गे तत्र केषुचित् वर्गेषु न आसीत् अतः
एकवा द्वे वाक्यद्वयं वदामि परन्तु एतादृश उपपादनं बालबोधनाय एव उपयुज्यते उपरितने परिच्छेदे यत् किमपि पाठितं तत् प्रायः इति वक्तुम् इच्छते तत्तु प्राथमिकज्ञानम् अस्ति इति वक्तुम् इच्छति
समीचीनं
यतोहि घटे रूपं समवायसम्बन्धेन वर्तते तत् अपि अस्ति ज्ञानं
खलु नाम तत्र यदि कोऽपि वदति तत्र घटे रूपम् अस्ति तर्हि वयं जानीमः अस्तु समीचीनं तत्र रूपं घटे अस्ति तत्र नीलरूपवान् नीलः घटः इति चिन्तयामः नीलरूपं घटे अस्ति तत्र रूपम् इति किं भवति कीदृशपदार्थः रूपं
गुणः अस्ति
गुणः तत्र द्रव्ये केन सम्बन्धेन भवति
द्रव्ये समवायसम्बन्धेन वर्तते
समवायसम्बन्धेन वर्तते तर्हि समीचीनं तर्हि रूपं समवायसम्बन्धेन घटे वर्तते इति प्रत्ययः आगतं खलु आगतः अस्ति
इदानीं ज्ञानम् आगतम्
इदानीं तत्रापि तेनापि नाम तेन ज्ञानेनापि आधारादेयभावः सिद्ध्यति खलु तत्रापि आधारादेयभावः अस्ति खलु तत्र आधारः कः
तत्र रूपं घटे वर्तते अतः रूपम् आधेयः अस्ति गुणः आधेयः अस्ति घटः अधिकरणम् अस्ति
आधारः अस्ति अधिकरणम् अथवा
आधारः अस्ति
आधारः नाम अधिकरणम् आधारः अस्ति रूपम् आधेयः अस्ति अपि तत्र रूपमिति
गुणं तत्र भार नास्ति भारनिदानक्षमता नास्ति तत्र
हा इदानीं तत्र प्रथमवाक्ये किम् उक्तं तत्र एतादृश उपपादनं बालबोधाय एव उपयुज्यते नाम तत्र भारवहन आलोचना अधिकरणता भारनिधान आलोचना आदेयता इति यत् पूर्वम् उक्तं तत् केवलं बालबोधाय किमर्थम् इति उदाहरणेन सः प्रदर्शयति उदाहरणं किमस्ति रूपं घटे समवायसम्बन्धेन वर्तते तत्रापि आधारादेयभावः अस्ति खलु इदानीं तत्र रूपम् इति गुणः इदानीम् एतद् वाक्यं किं वदति गुणः इति न तत् भारनिदानक्षमम् भारनिदानक्षमम् इत्युक्ते किम्
तत्र भारः नास्ति इति प्रायः वक्तुम् इच्छति यदा घटः
क्षमम् इत्युक्ते तादृशसामर्थ्यं क्षमता एतत् कार्यं कर्तुम् इच्छामि किन्तु तादृशी क्षमता मयि नास्ति क्षमता इत्युक्ते सामर्थ्यं शक्तिः तत्र रूपं गुणः इति कृत्वा रूपे भारनिधान तादृशकार्यं कर्तुं क्षमता नास्ति सामर्थ्यं नास्ति शक्तिः नास्ति इति उक्तं किमर्थम् अग्रिमवाक्यं पठतु
भारः गुरुत्वम् इति उच्यते
हा भारः गुरुत्वं
गुरुत्वं गुणः इति न रूपे गुणभूते भवति भारः इति सामान्यभाषायां वक्तुं शक्यते परन्तु नैयायिकः गुरुत्वम् इति उच्यते च गुरुत्वं
गुणः अस्ति
गुरुत्वं गुणः अस्ति रूपे न भवति
यतोहि तत्र वयं तत्र यदि तत्र पश्यामः पुस्तके तत्र कस्मिन् पुटे अस्ति तत्र प्रायश पञ्चमे पुटे अथवा षष्ठे पुटे कुत्र अस्ति कोऽपि स्मरति वा तत्र अष्टमे पुटे सर्वे पश्यन्तु तत्र अष्टमे पुटे महोदय योगेन्द्रमहोदय अष्टमे पुटे पश्यतु तत्र के पदार्थाः कस्मिन् पदार्थेषु केषुचित् पदार्थेषु भवति इति उक्तं तत्र गुणः गुणे भवितुम् अर्हति वा
नास्ति
हा गुणः द्रव्ये भवितुम् अर्हति अन्यत्र कुत्रापि भवितुम् अर्हति वा गुणस्य आश्रयः गुणस्य आधारः केवलं द्रव्यं भवितुम् अर्हति खलु चित्रात् खलु
सामान्यसमवाय अभावः द्रव्य अस्ति
तद् गुणे अस्ति किन्तु गुणः गुणे भवितुम् अर्हति वा गुणः द्रव्ये गुणस्य आधारः आश्रयः किं भवितुम् अर्हति
गुणस्य आश्रयः द्रव्यं भवति
अन्यत् गुणः कर्म सामान्यं विशेषः समवायः अभावः आधारः न भवन्ति खलु आधारः न भवन्ति अतः यदि तत्र वयं चिन्तयामः तत्र रूपं भारं तत्र भारस्य निधानं कर्तुं शक्नोति तर्हि तत्र किं भवति रूपे गुरुत्वं भवेत् नाम रूपे भारः अस्ति चेत् रूपे गुरुत्वम् अस्ति यदि रूपे गुरुत्वम् अस्ति तत्र किं भवति रूपः रूपम् अस्ति रूपे भारः अस्ति चेत् भारः नाम गुरुत्वं
गुरुत्वमस्ति
भारः नाम गुरुत्वं किन्तु गुरुत्वमस्ति चेत् एषः अपि गुणः
गुणः रूपमपि गुणः
गुणः तदा गुणः एकः गुणः अन्यस्मिन् गुणे अस्ति इति आगतं किन्तु तादृशं न कदापि भवति इति कृत्वा एतद् कदापि न जायते इति कृत्वा तत्र उक्तमस्ति तद् न भवति अतः तत्र रूपे भारः नास्ति अतः तत्र कथं तर्हि रूपादि
कथं तर्हि रूपादि भारनिदानक्षमं भवेत्
तादृशसामर्थ्यं कथं रूपे भवति कथं वा घटः रूपभारं वहेत् यदि रूपे भारः नास्ति घटे रूपस्य भारं वहति इति न वक्तुं शक्नुमः खलु यदि रूपे भारः अस्ति चेत्
रूपे भारः नास्ति एकगुणे अन्यत् गुणस्य अधिकरणं न भवति
अतः तत्र किन्तु अस्मिन् उदाहरणे तत्र अस्मिन् उदाहरणे न क्षम्यताम् अस्मिन् उदाहरणे रूपं घटे अस्ति तत्र तु वयं जानीमः आधारादेयभावः अस्ति खलु आधारादेयभावः अस्ति इति तस्मिन् विषये संशयः अस्ति वा अस्माकं
न तत्र नास्ति
नास्ति अतः तत्र अत्र आधारादयभावः अस्ति किन्तु भारवहनं भारनिदानम् इति आलोचना नास्ति तर्हि तद् भारनिदानम् अपि भारवहनं तादृश आलोचना सम्यक् नास्ति खलु आधारादेयभावस्थले हा अतः अन्तिमवाक्यं तर्हि पठतु महोदय अतः
अतः भारनिदानं भारवहनम् इति एतत् सर्वं बालबोधनाय एव ग्रन्थादौ लिखितम्
अतः तत्र यत् प्रथमे वाक्ये लिखितं तस्य समाधानं कृतं खलु तच्छादितं खलु इदानीं नाम तत्र एतादृशरूपं वर्णनं केवलं बालबोधनाय एव कृतं यतोहि तत् सम्यक् नास्ति किन्तु अवगमने आरम्भस्थले
सर्वत्र न प्रवर्तते तादृशभारनिदानचिन्तनेन
वयं तत् किम् अस्ति इति अवगन्तुं शक्नुमः किन्तु तदेव अस्ति इति चिन्तनं सर्वदा मास्तु तत्र नाम तत्र यज्ञदत्तः आसन्दे अस्ति तत्र भारवहनं भारनिधानं तत् समीचीनं किन्तु तेन वयम् आधारादेयभावस्य अस्माकम् अवगमनं जायते किन्तु सर्वत्र तादृशभारः एव अस्ति इति चिन्तनं मास्तु तर्हि आधारादेयभावः भारनिधानम् अथवा भारवहनं नास्ति चेत् तर्हि आधारादेयभावः तत्र किम् अस्ति कथं सिद्ध्यति इति प्रश्नः उदयति खलु कः आधारः किं किम् अधिकरणम् इति तादृश तत् कथं जानीमः इति अग्रे भवति समीचीनं महोदय धन्यवादः उत्तममस्ति
धन्यवादः
अस्तु अग्रे नरसिंह हेग्डे महोदय नमस्कारः जयलक्ष्मी भगिनी नमस्कारः
अस्तु महोदय
नमस्कारः भगिनि अस्तु तर्हि अग्रे तत्र उषा भगिनी अग्रे पठति वा
अस्तु महोदय वस्तुतः इदम् अत्र वर्तते इति अस्मदीया प्रामाणिकप्रतीतिः प्रामाणिकप्रतीतिः एव आधार आदेयभावं साधयति न तु तत्र भारादिविचारः अपेक्षितः पुनरेकवारं पठामि महोदय वस्तुतः इदम् अत्र वर्तते इति अस्मदीया प्रामाणिकप्रतीतिः एव आधार आदेयभावं साधयति न तु तत्र भारादिविचारः अपेक्षितः एवं च भूतले घटः वर्तते इति प्रत्ययेन यथा घटभूतलयोः आदेय आधारभावः सिद्ध्यति तद्वत् घटे रूपं वर्तते वायौ स्पर्शः वर्तते आत्मनि ज्ञानादयः वर्तन्ते पटे द्रव्यत्वं वर्तते द्रव्यगुणकर्मसु सत्ताजातिः वर्तते कपालयोः घटः वर्तते तन्तुषु पटः वर्तते सर्पे क्रिया वर्तते कन्दुके उत्पादनं वर्तते परमाणव आकाशादौ विशेषः वर्तते इत्यादिभिः प्रतीतिभिः समवायसम्बन्धेन यानि पञ्चयुगलानि गुणगुणिनौ अवयवौ जातिव्यक्ति क्रियावन्तौ विशेषनित्यद्रव्ये इत्येतेषु प्रथमस्य आधेयत्वं द्वितीयस्य अधिकरणत्वं न सिद्ध्यति अस्तु महोदय अधिकरणत्वं च सिद्ध्यति सारि वयं इदानीं पठितवन्तः
परिच्छेदः अस्ति भगिनि तर्हि तत्र प्रायशः तत्र सत्ता जातिः वर्तते इति तावत्पर्यन्तं वदतु भगिनि
अस्तु महोदय वयम् इदानीं पठितवन्तः भारनिधानं भारवहनम् इति आधार आदेयभावस्य कृते बालस्य बोधकाय एव इति कथं देन् भार आधार आदेयभावः इति कथं वर्तते इति चेत् वस्तुतः इदम् अत्र वर्तते, इदम् अत्र वर्तते इत्येव प्रामाणिकरूपेण आधार आधेयभावं साधयति. इदम् इति आधेय
प्रमाणमस्ति, यत्र प्रमाणमस्ति प्रामाणिकप्रतीतिः नाम तत्र प्रमाणमस्ति, ज्ञानस्य प्रमाणमस्ति. प्रतीतिः नाम ज्ञानं, प्रामाणिकज्ञानं नाम यस्य ज्ञानस्य प्रमाणमस्ति तेन प्रमाणेन एव तत्र आधारादेयभावं सिद्ध्यति.
इदम् अत्र वर्तते इति कृते इदम् इदम् अत्र वर्तते इति आधारादेयभावं साधयति चेत् इदम् इति आदेयः अत्र इति अधिकरणता अथवा अथवा आधारः भवति.
समीचीनं भगिनी, हा हा समीचीनं. तर्हि तत्र इदम् अत्र वर्तते इति यदि वदामः तत्र एतत् चित्रम् अस्माकं मनसि आगतमस्ति. तर्हि तत्र इदमिति आदेयः यथा भवत्या उक्तम् अपि अत्र इत्युक्ते तत्र
न तु तत्र भारादिविचारः अपेक्षितः. अस्तु महोदय, भारनिधानम् अथवा भारवहनम् इति न अपेक्षितः. अत्र इदम् अत्र वर्तते इति उक्ते सति
यथा तत्र रूपं घटे वर्तते तत्र भारादिविचारः
न अपेक्षितः,
तस्य आवश्यकता नास्ति. अपि तद् नास्ति, तस्य अपेक्षता आवश्यकता अपि नास्ति. किन्तु वयं जानीमः रूपम् इति गुणः
घटे
घटे इति अधिकरणम् अग्रे.
एवं च भूतले घटः वर्तते इति प्रत्ययेन यथा घटभूतलयोः आधेय आधारभावः सिद्ध्यति तद्वत् घटे रूपं वर्तते, वायौ स्पर्शः वर्तते, आत्मनि ज्ञानादयः वर्तन्ते, पटे द्रव्यत्वं वर्तते, द्रव्यगुणकर्मसु सत्ताजातिः वर्तते. भूतले घटः वर्तते इति ज्ञानस्य कृते इति प्रतीतिः कृते भूतले इति भूतलम् इति आधारता अस्ति. भूतले कृते आधारता अस्ति अथवा अधिकरणता अस्ति. घटः इति आधेय घटः कृते आधेयता अस्ति अथवा आधेयता अस्ति इति वयं जानीमः इदम् अत्र वर्तते इति कृतेन इति प्रत्ययेन. तदेव घटभूतलयोः तद्वत् एव
अत्र अत्र भूतले घटः वर्तते इति तत्र आधार आधेय आधारभावः सिद्ध्यति इति उक्तं. तत्र कोऽपि संशयः नास्ति खलु? तत्र कः पदार्थः आदेयः, कः पदार्थः
आधारः
आधारः इति तत्र संशयः नास्ति खलु?
आं महोदय,
यथा यदि वदामः भूतले घटः वर्तते, जानीमः तत्र कः आधारः, कः
आदेयः. तद्वत् एव यथा घटभूतलयोः आधार आदेयभावः अस्ति तद्वत् एव घटे रूपं वर्तते. घटे रूपं वर्तते इति कृते रूपम् इति आधेयता अस्ति, घटे इति अधिकरणं भवति. वायौ स्पर्शः वर्तते इति कृते वायौ इति अधिकरणं भवति, स्पर्शः इति आधेयः भवति. आत्मनि ज्ञानादयः वर्तन्ते इति कृते आत्मा इति अधिकरणम्, आत्मा इति अधिकरणं, ज्ञानम् इति आधेयः भवति. पटे द्रव्यत्वं वर्तते, पटे इति द्रव्यस्य पटे इति वयं जानीमः द्रव्यम् अस्ति, तत् कृते द्रव्यत्वं वर्तते. द्रव्यत्वम् इति आदेयः भवति, पटः इति अधिकरणं भवति. द्रव्यगुणकर्मसु सत्ताजातिः वर्तते. द्रव्य अथवा गुण कर्म इत्येतेष् कृते वयं पठितवन्तः. सत्ता जातिः वर्तते इति कृते सत्ता जाति इति आदेयता. द्रव्यगुणकर्मः कर्म एनि अब्धं कुड्बि आदा अधिकरणता भवति. सत्ता जाति
आधारः जातिः नाम सत्ता जातिः परा जातिः अस्ति, तस्य कृते बृहत् तत्र बृहती जातिः कापि नास्ति. नाम तत्र द्रव्य द्रव्यं सत् गुणः सन् इति वदामः, नाम अस्ति गुणः अस्ति कर्म अस्ति, तत्र अस्ति इति तत्र सन् इति तत्र शत्रन्तरूपं गुणः सन् द्रव्यं सत् कर्म सत् इति तादृशं तत्र तादृशसामान्यं तत्र जातिः नाम सामान्यं खलु, तत्र यत् समानधर्मः द्रव्ये वर्तते गुणे वर्तते कर्मसु कर्मणि वर्तते सा तत्र सामान्यं तद् सामान्यमेव तत्र जातिः इति सत्ता जातिः इति भवति, सा जातिः तत्र सर्वत्र वर्तते यथा भवती उक्तवती जातिः इति एव तत्र आदेयः, द्रव्य वा गुण वा कर्म वा तत्र यः कोऽपि पदार्थः तत्र आधारः भवति आधारः भवति, अपि तत्र प्रत्येकस्मिन् स्थले तत्र अस्माकं प्रमाणम् अस्ति, नाम रूपं घटे वर्तते तत्र प्रत्यक्षप्रमाणं, वायोस्पर्शः वर्तते तत्र अनुमानप्रमाणम्, आत्मनि ज्ञानादयः वर्तन्ते तत्र अपि अनुमानं नाम ज्ञानस्य अधिकरणम् आत्मा इति, द्रव्यत्वम् इति जातिः तत्र सामान्यं पटे वर्तते, अतः तत्र प्रत्येकस्मिन् स्थले तत्र प्रमाणमस्ति, केवलं ज्ञानं न तस्य प्रमाणमपि अस्ति, अतः एव तत्र प्रामाणिकप्रतीतिः यत्र वर्तते तत्र आधारादयभावः सिद्ध्यति इति उक्तम्। समीचीनं भगिनि, धन्यवादः। अस्तु अग्रे तत्र अग्रे विमला भगिनी अग्रे पठति वा?
आचार्य पूर्वं द्रव्यगुणकर्मसु त्रिकर्मस्य एकम् उदाहरणं किञ्चित् वद।
क्रिया क्रिया यः कोऽपि क्रिया उत्पतनक्रिया
तर्हि उत्पतनक्रिया कन्दुके वर्तते इति वा?
न उत्पतनक्रिया अस्ति, उत्पतनक्रिया क्रिया अस्ति इत्युक्ते एव तत्र सत्ता जातिः अस्ति, सत्ता जातिः नाम अस्ति इति एव तत्र सामान्यमस्ति, सर्वम् अस्ति अस्ति
कर्म
कर्म इत्युक्ते क्रिया। अस्तु विमला भगिनी अग्रे।
आं महोदय, अत्र
कपालयोः
कपालयोः घटः वर्तते, तन्तुषु पटः वर्तते, सर्पे क्रिया वर्तते, कन्दुके उत्पतनं वर्तते, परमाणु आकाशादौ परमाणवाकाशादौ विशेषः वर्तते इत्यादिभिः प्रतीतिभिः समवायसम्बन्धस्य यानि पञ्चयुगलानि गुणगुणिनौ अवयवौ जातिव्यक्ति क्रियावन्तौ विशेषनित्यद्रव्ये इत्येतेषु प्रथमस्य आधेयत्वं द्वितीयस्य अधिकरणत्वं च सिद्ध्यति। अत्र आधेय अधिकरण इति युगलस्य विवरणमस्ति, यथा घटः कपाले वर्तते, पटः तन्तुषु वर्तते, सर्पे सर्पः क्रियाया तस्य क्रियायां वर्तते, तथैव
तन्तुषु पटः वर्तते तत्र इति वदतु भगिनि। अग्रे सर्पे
कन्दुकस्य सह खेलनेन उत्पतनं भवति, उत्पतनं क्रिया अस्ति, कन्दुके उत्पतनं वर्तते, अपि च परमाणु आकाशादौ विशेषः वर्तते इति एतत् ज्ञानमस्ति अस्माकम्, एतत् समवायसम्बन्धः अपि च समवायसम्बन्धः कुत्र कुत्र वर्तते इति अत्र पञ्चसु स्थलेषु अस्ति इति उल्लिखितम्, यत्र गुणगुणिनौ
इदानीं तत्र गुणगुणिनौ इति तत्र उदाहरणं किम् अस्ति, तत्र घटे रूपं वर्तते,
घटे रूपं वर्तते
तत्र आत्मनि ज्ञानं वर्तते तदपि तत्र
गुणगुणिनौ अस्तु, अवयव अवयव अवयवी अवयवौ यत् कपालघट
समीचीनं
अवयवी, अपि च तन्तु पट अपि तन्तु तवपि अवयव अवयवी अवयव खलु महोदय?
समीचीनं भगिनि, तन्तुषु पटः सत्यम्।
अपि च जातिव्यक्ति अत्र जातिव्यक्ति अत्र
जाति तत्र सत्ता जातिः
सत्ता द्रव्यगुणकर्मसु अस्ति इति अस्तु,
अथवा तत्र
जाति
इत्युक्ते सामान्यं, जाति इत्युक्ते तत्र सामान्यं, यथा पटे द्रव्यत्वम् अथवा पटत्वं,
द्रव्यत्वं पटत्वम् इति अस्तु. क्रिया क्रियावन्तौ इत्युक्ते सर्पः अपि च क्रिया, तस्य सरणक्रिया, विशेषनित्यत्वे च परमाणु अपि च आकाश इत्येतौ सर्वत्र प्रथमतया
अत्र एकः तत्र यत् युगलानि इति उक्तं खलु, तत्र युगलानि
द्वाव सन्ति, अधिक आधेय अधिकरण इति प्रथमस्य आधेय, द्वितीयस्य अधिकरण इति विवरणं दत्तमस्ति.
दत्तमस्ति, समीचीनं. तर्हि तत्र गुण इति आदेयः पञ्चगुणेषु, गुणि
अधिकरणम्
अधिकरणम्
अस्ति.
अपि तदनन्तरं तत्र अवयवी अवयवाः, तत्र अवयवी इति इत्युक्ते तत्र
घटः, कपालः अवयवः, घटः अवयवी, कपालः अवयवौ.
अपि जातिव्यक्ति अत्र अवयवौ इति, अपि जातिव्यक्ति तत्र जाति इति तत्र वयं दृष्टवन्तः. तत्र सत्ता जातिः अपि द्रव्यं वा गुणं, गुणः वा व्यक्तिः भवति. तत्र जातिव्यक्ति इति दीर्घ इकारः किमर्थं?
व्यक्तिः व्यक्ति, हरिः हरि हरयः इति पुल्लिङ्गे इकारान्त पुल्लिङ्गः अस्ति न.
तत्र तत्र व्यक्ति इति मतिशब्दवत्, किन्तु तत्र व्यक्तिः व्यक्ति इति स्त्रीलिङ्गे एव अस्ति, किन्तु दीर्घ उकारः, दीर्घ इकारः
द्विवचनसूचनार्थं. अस्तु
महोदय, स्त्रीलिङ्गे
अस्तु वा? अस्तु. क्रिया क्रियावन्तौ इत्यपि क्रियावान् क्रियावन्तौ
इति द्विवचने,
नित्यद्रव्ये,
तत्र द्रव्यं स्थाने द्रव्ये,
द्रव्ये इति तदपि द्विवचने अस्ति.
तत्र युगलम् अस्ति सूचनाय द्विवचनं, द्विवचने अस्ति. अतः सर्वत्र प्रथमस्य आधेयत्वं
द्वितीयस्य अधिकरणत्वम् इति सिद्ध्यते. इत्युक्ते
सिद्ध्यति, तर्हि यत्र समवायसम्बन्धः अस्ति, यत्र समवायसम्बन्धः अस्ति, पदार्थद्वयमस्ति, तयोः मध्ये समवायसम्बन्धः अस्ति, तत्र तादृशं ज्ञानम् अस्माकं भवति. एकः पदार्थः इदम् अत्र वर्तते, अपि सम्बन्धः समवायः अस्ति चेत् तत्र आधारः कः, आदेयः कः इति जानीमः खलु. तत्र तत्र कोऽपि संशयः नास्ति खलु, तत्र तत्र गुणः एव तत्र आदेयः,
गुणे
एव
अधिकरणम्
अधिकरणं. तर्हि तत्र कोऽपि संशयः नास्ति, अतः अत्र आधारादेयभावः अस्ति इति जानीमः. एकः अन्यस्मिन्
वर्तते, वर्तते,
अतः कोऽपि संशयः नास्ति. भारनिधानम् इति तादृशचिन्तनं
तस्य आवश्यकता नास्ति,
नास्ति इति इदानीं जानीमः. समवायसम्बन्धः यत्र अस्ति तत्र सम्यक् रीत्या आधारादेयभावः सिद्ध्यति इति इदानीं जानीमः. समीचीनं भगिनी, अस्तु,
धन्यवादः. अत्र आत्मनि ज्ञानादयः वर्तन्ते, तर्हि ज्ञानादयः इत्युक्ते आदयः मध्ये के सम्मिलितः आदयः?
भवती वदतु, तत्र ज्ञानादयः वर्तन्ते, तत्र ज्ञानस्य विशेषगुणाः के इति भवती वदतु. कति गुणाः सन्ति आत्मनः गुणाः?
ज्ञानाधिकरणम् आत्मा.
भवती वदतु तर्हि, तत्र कति विशेषगुणाः सन्ति आत्मनि इति.
विशेषगुणः
चेत् 62 पश्यतु तर्हि. तर्हि तत्र विशेषगुणाः तत्र
द्रव्यम्
नवगुणाः सन्ति आत्मनि.
आमां, बुद्धिः, सुखं, दुःखम्, इच्छा, द्वेषः, प्रयत्नः, धर्मः, अधर्मः, भावनाख्यसंस्कारः.
अतः तत्र आदि इत्युक्ते नवविशेषगुणाः वर्तन्ते इति. यतो हि तत्र गुणगुणिनौ इति तस्य उदाहरणमस्ति तत्र आत्मनि ज्ञानादयः वर्तन्ते आत्मा इति गुणि ज्ञानमिति गुणः अस्तु अग्रे सरामः तर्हि तत्र अग्रे तत्र अशोक महोदय पठति वा
अस्तु महोदय एवं भूतले घटो नास्ति वायौ रूपं नास्ति परमाणौ महत्त्वं नास्ति रूपे गुरुत्वं नास्ति इत्यादि प्रत्ययैः तत्तद् अभावस्य दैशिकविशेषणतासम्बन्धेन आधेयत्वं भूतलवायवादीनाम् अधिकरणत्वं च सिद्धं भवति एवमेव विषयत्वं कार्यत्वं कारणत्वम् इत्यादयः ये विषयाः एतत् शास्त्रचर्चिताः तेषामपि घटे विषयत्वं वर्तते इत्यादि ज्ञानैः देशिकविशेषणतासम्बन्धेन स्वरूप अपरपर्यायेण आधार आधेयभाव सिद्धिः अतः विषयत्वादीनाम् आधेयत्वं घटादीनाम् अधिकरणत्वं ज्ञातव्यम् अधुना अभावस्य विषयं चिन्तितं भूतले घटः नास्ति इति ज्ञानम्
तत्र भूतले घटः नास्ति इति वयं कथं वदामः भूतले किम् अस्ति तर्हि
भूतलः आधारः अस्ति घटः भूतले अस्ति अतः घटः आधेयः अस्ति
किन्तु भूतले घटः नास्ति
अभाव एव अद्य पश्यामि अधुना घटः भूतले नास्ति इति
तर्हि
अतः घटाभावः भूतले अस्ति
हा घटाभावः भूतले अस्ति हा तथैव वायोरूपं नास्ति इत्युक्ते
सदा रूपं वायो नास्ति
हा तर्हि तत्र वायोरूपं नास्ति इत्युक्ते वायो किम् अस्ति रूपस्य
रूपाभावस्य अधिकरणम् अस्ति
हा वायुः रूपाभावस्य अधिकरणम् अस्ति समीचीनं हा अग्रे
परमाणु महत्त्वं नास्ति अतः महत्त्वाभावः परमाणौ अस्ति
अस्ति हा
रूपे गुरुत्वं नास्ति अतः गुरुत्व अभावः रूपे
अस्ति
अस्ति
अतः
इत्यादि प्रत्ययज्ञानैः तदत् अभावस्य दैशिकविशेषणतासम्बन्ध स्वरूपसम्बन्धः अस्ति
इति सत्यं हा स्वरूपसम्बन्धः इति एव
अभाव स्वरूपसम्बन्धेन स्वरूपसम्बन्धेन अधिकरणे अस्ति
हा तत्र आधेयत्वम्
आधेयत्वम्
भूतलवायुवादीनाम् अधिकरणत्वं च सिद्धं भवति
स्वरूपसम्बन्धेन आदेयः अस्ति अभाव आधेयः अस्ति द्रव्यं द्रव्य
तत्र आधारः अस्ति समीचीनं हा तर्हि तत्र प्रथमोदाहरणे भूतलम् इति आसीत् तर्हि भूतलं भूतले अधिकरणत्वम् अस्ति वायुः इति द्वितीय उदाहरणे आसीत् अतः वायुवादी भूतलं वायुवादी इति वर्णनं खलु तत्र प्रथमोदाहरणे भूतलं द्वितीय उदाहरणे वायुः अतः भूतलवायुवादीनाम् अधिकरणत्वं सिद्धं भवति अपि घटाभावः रूपाभावः महत्त्वाभावः इति अतः तत्र तत्तद् अभावस्य तत्तद् अभावः नाम प्रथम उदाहरणे यः पदार्थः नास्ति तस्य पदार्थस्य अभावः इति खलु. अतः तत्र तत्तत् पदार्थस्य अभावस्य आदेयत्वं सिद्ध्यति, भूतलं वायवादीनाम् अधिकरणत्वं च सिद्ध्यति अथवा सिद्धं भवति. अपि तत्र यथा भवता उक्तं दैशिक तत्र दैशिकविशेषणतासम्बन्धेन नाम स्वरूपसम्बन्धेन तत्र घटाभावः अभावः तत्र वयं जानीमः तत्र स्वरूपसम्बन्धेन एव तत्र भवति इति. स्वरूपसम्बन्धावच्छिन्ना अस्ति अतः तत्र भूतले वर्तते इति. समीचीनं महोदय. अस्तु अग्रे.
एवमेव विषयत्वं कार्यत्वं कारणत्वम् इत्यादयः ये विषयाः एतत् शास्त्रीयचर्चिताः. शास्त्रे विषयत्वं कारत्वं कारणत्वम् इत्यादयः केन सम्बन्धेन आधारे वर्तते इति चिन्तितः इति अहम्.
अपि तत्र विषयत्वम् इति चर्चितं तत्र शास्त्रे. विषयता कार्यत्वं कार्यं किं कारणं किम् एतत् एतेषां चर्चा भवति खलु. अतः तत्र एते विषयाः शास्त्रचर्चिताः नाम शास्त्रेषु एते विषयाः चर्चिताः शास्त्रे तेषां चर्चा अस्ति अतः ते चर्चिताः विषयाः. अपि तेषामपि
तेषामपि घटे विषयत्वं वर्तते इत्यादि ज्ञानैः स्वरूपसम्बन्धेन स्वरूप अपरपर्यायेण कः अर्थः कः
तत्र पर्याय इत्युक्ते समानार्थकः खलु. पर्यायवाचक वाची शब्दः नाम पर्याय नाम समानार्थकः. स्वरूप इति पदम् अपर स्वरूपभिन्न पर्यायेन नाम तत्र स्वरूपसम्बन्धः स्वरूपसम्बन्ध सम्बन्धेन इति एव तत्र अर्थः.
अपर अन्यः इति अर्थः
सत्यं. किन्तु तत्र अपरपर्याय नाम तत्र दैशिकविशेषणता इति उक्तं खलु. तत्र दैशिकविशेषणता इत्युक्ते तत्र स्वरूपसम्बन्धः केवलं नामकरणं तत्र शैली तत्र स्वरूप अपरपर्यायेण तत्र समान सम्बन्धः किन्तु अन्यत् नाम अन्यनाम तस्य अस्ति इति.
अस्तु आधार आधार आधेय भावसिद्धिः इति
नाम स्वरूप अपरपर्यायेण नाम दैशिकविशेषणतासम्बन्धः इत्युक्ते कः सम्बन्धः
स्वरूपसम्बन्धः
खलु. अतः दैशिकविशेषणतासम्बन्धः कीदृशः स्वरूप अपरपर्यायसम्बन्धः अस्ति दैशिकविशेषणतासम्बन्धः.
सम्बन्धः स्वरूपसम्बन्ध इति अन्यनाम
इति तावदेव. तत्र व्याकरणरीत्या एतत् पदं तत्र स्वरूप अपरपर्यायः इति पर्यायेन इति विशेषणमस्ति दैशिकविशेषणतासम्बन्धेन इति विशेष्यमस्ति तत्र.
अस्तु महोदय.
अतः तत्र तेषां
कस्य
न तेषाम् इति तावत्पर्यन्तं तेषामपि नाम एते विचारः विषयत्वं कार्यत्वं कारणत्वम् इति ये विषयाः सन्ति तेषाम् आधारादेयभावः स्वरूपसम्बन्धेन सिद्ध्यति नाम यदि वयं वदामः घटे विषयत्वं वर्तते
घटे विषयत्वं कथा कथं वर्तते कार्यत्वं कथं वर्तते कारणत्वं कथं वर्तते
इति
ज्ञानविषय सिद्धः
सत्यं महोदय. तर्हि तत्र घटः घटे तत्र कार्यत्वं नाम तत्र वयं जानीमः घटस्य उत्पादनं तत्र कपालेन भवति इति. तर्हि घटः कार्यं भवति कपालः कारणं भवति. तर्हि तत्र घटे कार्यत्वम् अस्ति तर्हि यदि वयं वदामः तादृशज्ञानं प्रतीतिः भवति अस्ति घटे कार्यत्वम् अस्ति तदा वयं जानीमः तत्र कार्यत्वं स्वरूपसम्बन्धेन घटे वर्तते अतः यत्र स्वरूपसम्बन्धः अस्ति तत्र आधारादेयभावः सिद्ध्यति तत्र संशयः नास्ति यदि वदि तत्र कार्यत्वं घटे अस्ति इति यदि वदामः तत्र न कोऽपि संशयः कार्यत्वम् इति आदेयः घटः इति अधिकरणम् यथा समवायसम्बन्धस्तरे आधारादेयभावः सिद्ध्यति तथैव स्वरूपसम्बन्धस्तरे अपि आधारादेयभावः सिद्ध्यति
अस्तु
तर्हि तत्र पूर्वम् एतावत् महोदय तत्र सिद्धं भवति इति एतावत् यदस्ति तत्र सर्वं तत्र उदाहरणानां तत्र विषयः उदाहरणेषु किं किं भवति इति तावत्पर्यन्तं सिद्धं भवति आदेयत्वम् अधिकरणत्वम् आधारादेयभावः सिद्ध्यति तत्र अभावस्थले तदनन्तरं किं विषयत्वं कार्यत्वं कारणत्वं तेषां विषयः इदानीम् अग्रे अतः तत्रापि आधारादेयभावः अस्ति अतः विषयत्वाधीनामपि आधेयत्वं घटादीनामपि अधिकरणत्वं ज्ञातव्यम् अस्माभिः ज्ञातव्यं नाम तत्र यत्र विषयत्वं कार्यत्वम् एतादृशविषयः अस्ति तत्रापि आधारादेयभावः सिद्ध्यति तत्रापि स्वरूपसम्बन्धः एव अस्ति तर्हि यत्र यत्र स्वरूपसम्बन्धः अस्ति तत्र आधारादेयभावः सिद्ध्यति तत्र अन्यस्य आवश्यकता नास्ति अन्यत् किमपि भारवहनस्य अथवा तस्य किमपि आवश्यकता नास्ति अस्तु अग्रे सरामः तर्हि समीचीनं वा महोदय
आं महोदय
विमला भगिनी प्रश्नः
प्रश्नः अस्ति महोदय अत्र निर्दिश्यत्वं कार्यत्वं कारणत्वम् इति उक्त्वा तेषामपि घटे विषयत्वं वर्तते इत्यादि ज्ञानैः वर्तते इति तत् अवगतम् अत्र दैशिकविशेषणसम्बन्धेन स्वरूप पर्यायेण आधारादिभावसिद्धि इति वक्तुम् अभावस्य वर्ण उल्लेखनमत्र न कृतं खलु
नाम यथा आधा तत्र यथा अभावः सम्बन्धेन आश्रये अस्ति तथैव विषयत्वमपि स्वरूपसम्बन्धेन अस्ति
अस्तु
हा यथा तत्र वयम् एतत् वयं पूर्वं दृष्टवन्तः इति मन्ये भगिनि तत्र न जानामि कुत्र किन्तु पूर्वं वयं दृष्टवन्तः तत्र एतत् अस्मिन् केन सम्बन्धेन तिष्ठति इति तस्मिन् विषये पूर्वं बहुपूर्वम् आसीत् अहं तत्र पुटसङ्ख्या सङ्ख्यां न स्मरामि यदि अन्य कोऽपि स्मरति चेत् वदतु तत्र घटत् किन्तु अभावस्थले एव
महोदय स्वरूपसम्बन्धमित्युक्ते इत्युक्ते किम् इति अवगच्छामि केवलं अत्र अस्मिन् वाक्ये अभावस्य उल्लेखः
नास्ति अभावः यथा अभावः स्वरूपसम्बन्धेन आश्रये अस्ति तत्र अभावप्रसङ्गे अभावः आदेयः इति जानीमः अपि तस्य आश्रयः अस्ति इति जानीमः तथैव अत्रापि विषयत्वम् इति यत्र अस्ति विषयत्वम् इति आदेयः भवति अपि तत्र घटः वा तत्र अन्यत् किमपि अधिकरणं भवति इति जानीमः तत्र संशयः नास्ति अतः तत्र यत्र स्वरूपसम्बन्धः इति अस्ति एकः पदार्थः
नास्ति तत्र अभावः
अस्मिन् हा स्वरूपसम्बन्धेन अस्ति इति यत्र ज्ञानम् अस्ति तत्र आदेयत्वम् अधिकरणत्वं सिद्ध्यति
अस्तु महोदय अवगतं
समवायसम्बन्धस्थले अपि आधारादेयभावस्य प्रसङ्गे संशयः नास्ति स्वरूपसम्बन्धस्थले अपि आधारादेयभावः सिद्ध्यति तत्रापि संशयः नास्ति
आं महोदय धन्यवादः
समीचीनं भगिनि
अवगतं
अस्तु शोभगिनि धन्यवादः. अस्तु अग्रे तत्र पद्मा भगिनी अग्रे पठति वा.
नमस्ते जी. जी अद्य अहं शृणोमि, मम मध्ये किञ्चित् क्लेशः अस्ति.
अस्तु अस्तु, चिन्ता मास्तु भगिनि. अस्तु तर्हि तत्र अग्रे शोभा भगिनी अग्रे पठति वा.
आं महोदय. एवं तत्र पृष्ठसङ्ख्या 57 पुटे दर्शितरीत्या काल उपाधीनां गृहादिरूपजन्यानामपि इदानीं घटः वर्तते, तदानीं घटः आसीत् इत्यादि प्रत्ययैः कालिकसम्बन्धेन अधिकरणत्वम्, इतरेषां च तेन सम्बन्धेन आधेयत्वं बोध्यम्. परमार्थः तु संयोगेन समवायेन स्वरूप अपरपर्यायदैशिकविशेषणतया कालिकेन यौ पदार्थौ परस्परसम्बद्धौ प्रतीयेते, तत्र इहा इति प्रत्ययविषयः भूतलादि अधिकरणं भवति, अयम् इति प्रत्ययविषयः घटादिः आधेयवत्वान् भवति इति सिद्धम्. एते च सम्बन्धाः आधार आधेयभावं साधयन्ति इति वृत्तिनियामकाः इति उच्यन्ते. वृत्तिः आधेयता, तन्नियामकाः तत् अवच्छेदकाः इति अर्थः. बहु किमपि अस्ति तत्र महोदय. एवं तत्र तस्मिन् पृष्ठे तत्र 57 पृष्ठे गृहादिः कथं उपाधिः भवन्ति इति दृष्टवन्तः. तत्र क्रियासमुदायः इति तुल्यकाल पृथक्कर्ता क्रियासमुदायः इति, तत्र इत्युक्ते येन तुल्यक्रिया अनुभूतः, तत्र गृहादयः दर्शितानि उदाहरणरूपेण, तेषां तत्र तेन सम्बन्धः भवति इति. इत्युक्ते तावान् क्रियासमुदायश्च येन अनुभूतः सः गृहादिः, तावत् क्रियासमुदायेन पृथक्तः एकस्य वत्सरस्य सम्बन्धी भूत्वा स्वयमपि कालस्य सङ्कोचको भवति इति तत्र दृष्टवन्तः.
उपाधि नाम कालस्य उपाधि नाम कालस्य प्रतिनिधिः भवति तत्र. यस्य जन्म अस्ति नाम तत्र गृहम् इत्यादि, यस्य जन्म तत्र जन्य यः पदार्थः जन्य अस्ति, गृहादिरूपजन्यपदार्थः यः यदस्ति सः अपि कालस्य प्रतिनिधिरूपेण, यतोहि तत्र तेन कालस्य
जन्यानाम् एव काल उपाधित्वं भवति
इति उक्तम्. इदानीं
तथा तत् दृष्टवन्तः पूर्वम्. इदानीं घटः वर्तते, तदानीं घटः आसीत् इत्यादि प्रत्ययैः, इत्युक्ते इत्यादि ज्ञानेन कालिकसम्बन्धेन अधिकरणत्वं भवति, इतरेषां च तेन सम्बन्धेन आधेयत्वं बोध्यम् इति. इत्युक्ते तथा एव तादृशरीत्या.
इदानीं तत्र उदाहरणं स्वीकरोतु भगिनि. तत्र घटः वर्तते इति उदाहरणं.
घटः वर्तते.
इदानीं घटः वर्तते इति तत्र आधारादीयभावः अस्ति वा तत्र?
अस्ति. इदानीं घटः वर्तते इति उक्तत्वात् इदानीम् इति आधेय भवति.
तत्र आदेयः कः, अधिकरणं किम्?
तत्र पूर्वस्मिन् पृष्ठे दृष्टवन्तः इदम् अत्र वर्तते इति.
तस्य उदाहरणम् अस्ति किन्तु उदाहरणं किमर्थम्
आधेयः अत्र वर्तते घटः इति, घटः वर्तते इति दत्तम्. इदानीं घटः वर्तते इत्यस्मात्
तर्हि तत्र आदेयः कः अधिकरणं किम्
तत्र घटः कस्मिन्नपि वर्तते अतः घटः आधेयः भवति यत्र वर्तते तत् अधिकरणं भवति
कस्मिन् वर्तते तर्हि अधिकरणं किम्
तत्र
अग्रे पठतु
इदानीं घट तदानीं घट आसीत् इति प्रत्यय इत्यादि प्रत्ययैः कालिकसम्बन्धेन अधिकरणत्वं वर्तते तत्र काले कालः अधिकरणं भवति
समीचीनं भगिनि तथैव नाम घटः इदानीं घटः नाम घटः अपि
काले
कालः कालः अधिकरणम् अपि सम्बन्धः कालिकसम्बन्धः
तत् अपि च तत्र वर्तते अधिकरणत्वं भवति इतरेषां च तेन सम्बन्धेन आधेयत्वं बोध्यम् इति तथा तत्र इतरेषां च इति तत्र तथा एव इतरे आधेयानाम् इति भवति इति मन्ये तत्र महोदय तेन सम्बन्धेन एव
इदानीं पटः इति अतः तेषाम् आधेयत्वं बोध्यं
तेषां सर्वेषाम् आधेयत्वं भवति बोध्यं भवति अपि च तत्र सर्वत्र कालः एव अधिकरणम् इति
कालः एव अधिकरणं तत्र उपादयः अपि अधिकरणानि भवन्ति किन्तु इदानीं तस्य विषयः मास्तु महाकालः इति चिन्तयामः किन्तु यत्र यत्र तत्र कालिकसम्बन्धः अस्ति तत्र अधिकरणं किम् इति जानीमः अपि तत्र आदेयः कः इति सम्यक् ज्ञानं भवति तत्र कोऽपि संशयः नास्ति खलु यदा तत्र इदानीं घटः वर्तते इति यदि वदामः तत्र घटः एव आदेयः महाकालः एव तत्र अधिकरणम् इति अतः तर्हि आहत्य तत्र स्वरूपसम्बन्धस्थले आधारादेयभावः सिद्ध्यति समवायस्थले आधारादेयभावः सिद्ध्यति कालिकसम्बन्धस्थले अपि आधारादेयभावः सिद्ध्यति अन्यस्य कस्यापि आवश्यकता नास्ति खलु अत्र
आम् आम्
तत्र भारवहनम् इत्यादयः इति तेषाम् आवश्यकता नास्ति
नास्ति सत्यम्
अपि तत्र भूतलं घटे वर्तते क्षम्यतां घटः भूतले वर्तते इत्यत्रापि तत्र घटः भूतले वर्तते तत्र घटः आदेयः भूतलम् अधिकरणम् इति तत्र संयोगसम्बन्धः तत्रापि संशयः नास्ति तत्र अधिकरणं किम् आदेयः कः इति सम्यक् रीत्या जानीमः तत्रापि संशयः नास्ति अतः अग्रे परमार्थः अस्तु
अग्रे परमार्थः तु संयोगेन समवायेन स्वरूप स्वरूप अपर पर्याय दैशिकविशेषणतया इत्युक्ते तत् दैशिकविशेषणतया इति इदानीं दृष्टवन्तः स्वरूपसम्बन्धेन इति अपि भवति इति
अभावविशेषणता दैशिकविशेषणसम्बन्धः इत्युक्ते स्वरूपसम्बन्धः
स्वरूप
अतः दैशिकविशेषणसम्बन्धः किमस्ति पर्यायपदमस्ति स्वरूपसम्बन्धस्य
पर्यायपदमस्ति
दैशिकविशेषणसम्बन्धः किन्तु समानपदं नास्ति खलु समानसम्बन्धः अस्ति किन्तु पदं तु भिन्नं पदमस्ति अतः अपरम्
इत्युक्ते तत्र महोदय स्वरूप अपरपर्याय अस्तु अपरपर्याय दैशिकविशेषणतया
स्वरूप अपरपर्याय तत् किमस्ति विशेषणम् अस्ति तद् विशेष्यं दैशिकविशेषणता इति
अस्तु 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 अपि च कालिकेन इत्युक्ते तत्र संयोगेन समवायेन स्वरूप अपरपर्याय दैशिक
तत्र केवलं स्वरूपसम्बन्धेन इति चिन्तयामः तत्र
दीर्घस्वरूपसम्बन्धेन स्वरूपसम्बन्धेन अपि च कालिकेन एतेषु सम्बन्ध एतेषां सम्बन्धेन यौ पदार्थौ परस्परसम्बद्धौ प्रतीयेते तत्र इहा इति प्रत्ययविषयः भूतलादि अधिकरणं भवति अयम् इति अस्तु तत्र सर्वत्र यानि ये सम्बन्धाः सूचिताः तत्र सर्वत्र यौ पदार्थौ परस्परसम्बद्धौ प्रतीयेत इत्युक्ते तत्र यौ पदार्थौ इत्यत्र अधिकरणम् इति
तत्र पदार्थौ परस्परसम्बद्धौ
परस्परसम्बद्धौ
सम्बद्धौ नाम ययोः मध्ये सम्बन्धः तौ पदार्थौ सम्बद्धौ
परस्परसम्बद्धौ इत्युक्ते तत्र आधार आधेय इति
न तत्र सम्बन्धः अस्ति नाम संयोगसम्बन्धः वा समवायसम्बन्धः सम्बन्धः अस्ति खलु पदार्थौ सम्बद्धौ स्तः परस्परसम्बद्धौ स्तः किन्तु
तत्र इह इति प्रत्ययविषयः इत्युक्ते इह इति तत्र प्रत्यय इत्युक्ते पुनः ज्ञानम् इह इति प्रत्ययविषयः भूतलादि अधिकरणं भवति अयम् इति प्रत्ययविषयः घटादिः आधेयत्ववान् भवति इति सिद्धम्
तर्हि तत्र कीदृशप्रतीतिः अथवा अत्र अस्ति इत्युक्ते अयम् इह अस्ति अयम् इह नाम अत्र
अत्र
नाम अत्र अयम् इह अत्र अस्ति तर्हि अयम् इति पदम् आदेयं सूचयति
इह इति अधिकरणम्
अधिकरणं सूचयति अतः तत्र अयम् इह वर्तते इति प्रायशः तद् वक्तव्यम् अस्ति इति मास्तु वर्तते
वर्तते इति
तर्हि अयम् इति आदेयः इह इति अधिकरणं भवति यत्र यत्र तत्र संयोगसम्बन्धः वा समवायसम्बन्धः स्वरूपसम्बन्धः वा कालिकसम्बन्धः अस्ति तत्र सम्बद्धौ पदार्थौ यत्र स्तः तत्र अयम् इह वर्तते सम्बन्धः संयोगः समवायः स्वरूपकालिकसम्बन्धः अस्ति तत्र कोऽपि संशयः नास्ति तत्र आधारादेयभावः सिद्ध्यति
इदानीं तत्र गुरुत्वस्य विषयः तस्य आवश्यकता नास्ति तावदेव पर्याप्तम् इति
अतः तत्र आदेयत्वम् इति सिद्धम् अयम् इति आदेयः इह इति अधिकरणम् इदानीम् एते च सम्बन्धाः तर्हि
एते च सम्बन्धाः आधार आधेयभावं साधयन्ति इति वृत्तिनियामकाः इति उच्यन्ते तत्र एते च सम्बन्धाः इत्युक्ते तत्र यथा संयोग समवाय स्वरूप इत्यादि कालिकसम्बन्धाः एते आधार आधेयभावं साधयन्ति इति वृत्तिनियामकाः इति इदानीं तस्य पदस्य
नामकरणम् अस्ति साधयन्ति इति कृत्वा तेषां नामकरणं वृत्तिनियामकः सम्बन्धः इति व्यवहारः इति व्यवहारः अस्ति नाम एते सम्बन्धाः वृत्तिनियामकाः सम्बन्धाः इति उच्यन्ते किमर्थम् इति अग्रे दीयते वृत्तिनियामकाः सम्बन्धः वृत्तिः नाम
वृत्तिः आधेयता तन्नियामकाः तत् अवच्छेदकाः इति अर्थः
अवच्छेदकः नाम नियमयति नाम तत्र सीमां करोति अत्र भवतु अन्यत्र नास्ति नियमः नियमं स्थापयति अथवा नियमयति इति कृत्वा अवच्छेदकः इति अर्थः अतः तत्र वर्तते अत्र एव वर्तते अन्यत्र न वर्तते अतः तत्र आदेयः अधिकरणे एव वर्तते अधिकरणम् आदेये न वर्तते इति अतः तत्र विपरीततया न वक्तुं शक्नुमः अतः तत्र ये अयम् इति एव पदार्थः इह इति पदार्थे एव वर्तते अतः तत्र वृत्तिः नाम अस्ति तत्र कुत्र कुत्र अस्ति कुत्र कुत्र तत्र वर्तते इति तत्र तदेव तत्र आधेयता
अयम् इति वृत्तिः भवति महोदय
नाम यदि वयं वदामः तत्र तत्र उष्णः तत्र उष्णः अथवा तत्र प्रकाशः तत्र अथवा तत्र नीलघटः इति चिन्तयामः तत्र नीलरूपं घटे वर्तते तर्हि रूपे वृत्तिः तत्र वृत्तित्वम् अस्ति नाम तत्र वर्तते तत् सः पदार्थः अन्यस्मिन् वर्तते तर्हि तस्य वृत्तित्वं तस्य इति भवति अतः तत्र वृत्तिः अत्र आदेयता आदेयतां सूचयति अपि तत्र आदेयतायाः तत्र नियामकः अवच्छेदकः इति अर्थः अतः तत्र वृत्तिनियामकः सम्बन्धाः एते इदानीम् अतः तत्र कालिकसम्बन्धः समवायसम्बन्धः स्वरूपसम्बन्धः संयोगसम्बन्धः वृत्तिनियामकाः सम्बन्धाः किन्तु इदानीं तत्र पूर्वमुक्तमासीत् तत्र ज्ञानं विषयतासम्बन्धेन विषये घटे वर्तते अयं घटः इति ज्ञानमस्ति तत्र ज्ञानं विषयतासम्बन्धेन घटे वर्तते इति पूर्वं पठितम् अस्माभिः तत्र किं तत्रापि आधारादेयभावः अस्ति न वा इति प्रश्नः नाम तत्र विषयता सम्बन्धस्थले अपि वृत्तिनियामकः तत्र विषयतासम्बन्धः अपि वृत्तिनियामकः सम्बन्धः अस्ति न वा इति प्रश्नः अग्रे भवति समीचीनं भगिनी धन्यवादः
धन्यवादः
परमार्थः इति
परमार्थस्तु नाम तत्र मूलविषयः यस्य अवगमनं करणीयः इत्युक्ते यत्र यत्र तत्र एषः एव परमार्थः नाम तत्र अयम् इह वर्तते यत्र यत्र अयम् इह वर्तते इति वदामः तत्र अब्स्ट्राक्षन् परमार्थः एषः एव मूलविषयः एतदेव तत्र वयं सर्वम् उक्तवन्तः तत्र तस्य सारांशः कः इत्युक्ते अयम् इह वर्तते यत्र सम्बन्धः अस्ति संयोगः समवायः स्वरूपः वा काकालिकः तत्र सर्वत्र आधारादेयभावः सिद्ध्यति इति
अस्तु महोदय
नाम परमार्थस्तु यत् एतावत् लिखितं सः एव परमार्थः
अस्तु
अग्रे तर्हि तत्र शुभदा भगिनी अग्रे पठति वा
महोदय क्षम्यतां महोदय इदानीं अयम् इह अस्ति इति वदामः चेत् अयम् इति वृत्ति इति वृत्तित्वम् अस्ति अयम् इत्यस्मिन् इह इत्यत्र नियामकः इति वक्तुं शक्नोति खलु
तत्र न तत्र नियामकः तत्र सम्बन्धः नियामकः अस्ति भगिनि
तत् अवच्छेदकाः नियामकाः
अवच्छेदकः नाम सम्बन्धः एव नियामकः अतः एव तत्र
सम्बन्धस्य
नाम अस्ति वृत्तिनियामकः सम्बन्धः इति
अस्तु पुनः महोदय इदानीं वृत्तिनियामकत्व अभावः इति वदामः चेत् किं कः अर्थः
अत्र यत्र तत्र आधारादेयभावः तत्र नास्ति इति तस्य सम्बन्धस्य नाम तत्र एकम् अन्यस्मिन् तत्र यथा अत्र सम्यक् रीत्या अस्ति वयं चिन्तयामः तत्र भूतले घटः वर्तते इति यत्र चिन्तयामः तादृशचिन्तनं तस्मिन् स्थले न भवति तत्र एकम् अन्यस्मिन् साक्षात् एकम् अन्यस्मिन् अस्ति इति तादृशवर्णनं न कर्तुं शक्नुमः यत्र विषयत्व तत्र वृत्तिनियामकत्वस्य अभावः इति तत्र संयोगस्थले अपि तत्र हस्तद्वयमस्ति तयोः संयोगसम्बन्धः भवति खलु नमस्कारसमये तत्र किम् एकम् अन्यस्य अधिकरणं भवति वा
नास्ति
तर्हि तत्र संयोगसम्बन्धः यदा वयं वदामः एकः अन्यस्मिन् वर्तते अपि संयोगसम्बन्धः अस्ति तत्र कोऽपि कोऽपि संशयः नास्ति. किन्तु इदानीं ज्ञानं विषयतासम्बन्धेन घटे वर्तते इति उक्तं किं तर्हि तत्र घटः अधिकरणम् अपि ज्ञानम् आदेयः इति यावत् यथा वयं पूर्वं चिन्तितवन्तः तथैव अत्रापि अस्ति न वा इति प्रश्नः इदानीं. नाम ज्ञानं विषयतासम्बन्धेन घटे वर्तते इति उक्तं किं तत्रापि आधारादेयभावः अस्ति न वा इति.
विषयत्वम् इति वृत्तित्वं विषयत्वम् इति वृत्तिरूपेण स्वीकर्तुं शक्नुमः खलु अत्र
विषयता सत्यं तत्र विषयता विषयता तत्र विषयता इति सम्बन्धः सः नियामकः करोति वा ज्ञानस्य वृत्तिः कुत्र कुत्र अस्ति तत्र विषये अस्ति वा तस्य वृत्तित्वं विषये अस्ति न वा इति प्रश्नः.
धन्यवादः.
समीचीनं भगिनी अस्तु धन्यवादः. शुभदा भगिनी अग्रे
महोदय किञ्चित् शृणोमि महोदय क्षम्यताम्.
अस्तु भगिनी अस्तु 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 चिन्ता मास्तु तर्हि अस्तु अग्रे तर्हि तत्र जयलक्ष्मी भगिनी भवती एव पठति वा तर्हि.
महोदय विषयत्वसम्बन्धस्य वृत्तिनियामकत्वे विवादः सर्वमपि इदं विवरणं विषयतासम्बन्धम् उपक्रम्य कृतं यथा च संयोगादिसम्बन्धैः अयमत्र वर्तते इति आधाराधेयभावसाधकः प्रत्ययः भवति तथा विषयतास्थले अपि प्रत्ययः भवति इति नैयायिकमूर्धन्यानां गदाधरभट्टाचार्याणाम् आशयः. विषयतासम्बन्धेन घटे घटविषयकं ज्ञानं वर्तते. विषयतासम्बन्धेन आत्मविषयकं ज्ञानम् आत्मनि वर्तते इति प्रत्ययाः समीचीना एव. तथा च वर्तते इति अयम् आकारः अस्ति इति विषयतासम्बन्धस्थले अपि आधाराधेयभावः भवति. अतः सोऽपि वृत्तिनियामकः इति भट्टाचार्याणां ग्रन्थदर्शनेन अवगच्छामः. बहु किमपि अस्ति महोदय, प्रयत्नं करिष्यामि. सर्वमपि इदं विवरणं विषय
इदानीं तत्र नाम तत्र चतुर्णां सम्बन्धानां विषये वयं पठितवन्तः तत्र वृत्तिनियामकत्वम् अस्ति इति खलु. किन्तु इदानीं विषयतासम्बन्धस्थले का स्थितिः इति अपि तस्मिन् विषये विवादः अस्ति.
अस्तु, सर्वमपि इदं विवरणं विषयतासम्बन्धम् उपक्रम्य कृतं तदेव उक्तम्. इत्युक्ते प्रथमं तु समयोगसमवायस्वरूपसम्बन्धः कालिकसम्बन्धेन कृते वृत्तित्वम् अस्ति इति वृत्तिनियामकत्वम् अस्ति इति
आधारादेयभावः
तत्र अस्ति.
किमर्थम् एतत् सर्वम् उक्तं यतोहि वयम् उपक्रम्य तत्र विषयतासम्बन्धस्य समीपं गन्तुम् इच्छामः अतः तत्र उपक्रम्य नाम तस्य समीपं गन्तुम् उपक्रम्य नाम समीपं गत्वा अतः तत्र गन्तुम् इच्छामः अतः तत्र विषयतासम्बन्धस्थले का स्थितिः इति वक्तुम् इच्छामः. किन्तु यदि अन्ये तत्र एतस्य वर्णनं न कृतं तर्हि तत्र का स्थितिः इति न अवगच्छामः. अतः एतादृशवर्णनं पूर्वं कृतमस्ति, इदानीं विषयतास्थले का स्थितिः इति सम्यक्तया अवगन्तुं शक्नुमः.
यथा च संयोगादिसम्बन्धैः अयमत्र वर्तते इति आधाराधेयभावसाधकः प्रत्ययः भवति तथा विषयतास्थले अपि प्रत्ययः भवति इति नैयायिकमूर्धन्यानां गदाधरभट्टाचार्याणाम् आशयः. यथा उक्तं पूर्वं संयोगादिसम्बन्धैः इत्युक्ते अयमत्र वर्तते, अयम् अत्र अस्ति इति कश्चन वदति चेत् आधार आधेयभावः वृत्तित्व वृत्तिनियामकत्वेन साधयन्ति इत्युक्ते आधाराधेयभावः वृत्तिनियामकत्वेन साधयति तथा एव विषयस्थले अपि एतादृशं कर्तुं शक्नोति इति गदाधरभट्टाचार्याणाम् आशयः अस्ति इति अत्र
उक्तं तत्र गदाधरभट्टाचार्यः न्यायशास्त्रे मूर्धन्यः श्रेष्ठः तैः तत्र तेषाम् आशयः अस्ति तत्र अत्रापि तादृशप्रतीतिः भवति नाम तत्र विषयतास्थले अपि आधारादेयभावः अस्ति इति अग्रे
विषयतासम्बन्धेन घटे घटविषयकं ज्ञानं वर्तते विषयतासम्बन्धेन आत्मविषयकं ज्ञानम् आत्मनि वर्तते इति प्रत्ययाः समीचीना एव
नाम यदा तत्र घटविषयकं ज्ञानं किमस्ति अयं घटः इति ज्ञानम् इति
ज्ञानं
एषः घटे वर्तते अपि तथैव अयम् आत्मा इति तत्र घटः इति विषयकज्ञानं घटे विषये वर्तते तथैव अयम् आत्मा इति विषये इति ज्ञाने विषयः आत्मा खलु
अयम् आत्मा आम्
अयं घटः इति ज्ञाने घटः विषयः खलु
अयं घटः इति वदामः चेत् घटः विषयः सत्यं
घटः विषयः अयं घटः इति ज्ञानं विषयतासम्बन्धेन घटे अस्ति इति स्वीकृतं तथैव अयम् आत्मा इति ज्ञानं तर्हि ज्ञानस्य विषयः कः अयम् आत्मा इति
अयम् आत्मा इति वदामः चेत् ज्ञानस्य विषयः आत्मा
आत्मा तर्हि आत्मा इति विषयः भवति खलु
आत्मनि विषयता अस्ति
हा विषयतासम्बन्धेन आत्मविषयकं ज्ञानम् एतद् ज्ञानम् आत्मविषयकं ज्ञानम् अस्ति आत्मविषयकं ज्ञानम् आत्मनि अस्ति विषयतासम्बन्धेन तर्हि तत्र विषयतासम्बन्धेन तर्हि ज्ञानम् आत्मनि समयसम्बन्धेन अपि भवितुमर्हति विषयतासम्बन्धेन अपि भवितुमर्हति खलु इति आगतं खलु इति आगतं अग्रे
इत्युक्ते विषयः अस्ति आत्मा इति तत् तस्मिन् विषयता अस्ति तद् इदानीं ज्ञानमपि अस्ति
अतः तत्र ज्ञानं
समीचीन तत्र समवायसम्बन्धः अपि अस्ति विषयतासम्बन्धः अपि अस्ति
तत्र इति आगतं तर्हि किन्तु विषयतासम्बन्धेन आत्मविषयकं ज्ञानम् आत्मनि वर्तते अस्ति इति प्रत्ययः अतः
तथा च वर्तते इति एव आकारः इति एवम् आकारः तथा च वर्तते इत्येवम् आकारः अस्ति इति विषयतासम्बन्धस्थले अपि आधाराधेयभावः भवति इत्युक्ते अत्र विषयतासम्बन्धः यत्र यत्र अस्ति तत्र आधाराधेयभावः अपि अस्ति इति निर्णयः कुरुते
गदाधरभट्टाचार्येण अस्ति तत्र
विषयतासम्बन्धस्थले अपि आधाराधेयभावः भवति
इति
अतः सोऽपि वृत्तिनियामकाः इति अतः सः अपि वृत्तिनियामकाः इति भट्टाचार्याणां ग्रन्थदर्शनेन अवगच्छामः
तत्र यदि वयं तेषां ग्रन्थपठनं कुर्मः वयम् अवगच्छामः अस्तु तत्र
एषः
विषयतासम्बन्धः अपि वृत्तिनियामकः तत्रापि आधारादेयभावः साधितमस्ति इति तत्र सिद्धः अस्ति इति अवगच्छामः
इत्युक्ते न केवलं संयोगसमवायस्वरूपकालिकसम्बन्धेन सह अपि च विषयतसम्बन्धेन यत्र यत्र सम्बन्धः यत्र यत्र वर्तते तत्रापि वृत्तिनियामकः भवति
इति अस्ति इति प्रथमं मतं तत्र विवादः अस्ति. इदानीं प्रथममतं दत्तमस्ति. समीचीनं भगिनि, धन्यवादः. अस्तु अग्रे, अग्रे तत्र नरसिंहमहोदय अग्रे पठति वा महोदय. अस्ति वा, नो चेत् तत्र अस्तु अस्तु.
श्रीमद् जगदीश कर्तालङ्काराणां मते तर्कालङ्काराणां मते तु संयोगेन यथा वर्तते इति प्रत्ययः जायते तद्वत् ज्ञानस्थले वर्तते इति प्रत्ययः नैव जायते. यदि कस्यचित् भवति न सः समीचीनः. अतः आधारादेयभावः विषयतास्थले नैव सिद्ध्यति. किं तर्हि इमौ सम्बद्धौ इत्येतादेव इत्येतावदेव सम्बन्धौ इत्यादेव घट एतावदेव घटविषयकज्ञानम् उत्पन्नं चेत् घटः ज्ञानं विषयतासम्बन्धेन सम्बन्धे
सम्बद्धे
इत्येव तान् मात्रम् आत्मानित्यः इति चेत् ज्ञानं तदा ज्ञान आत्मनोः विषयतासम्बन्धेन सम्बद्धौ इत्येतावन् मात्रम्
अत्र विषयतावत् मात्रम्
अत्र पूर्वं वयं दृष्टवन्तः संयोगसम्बन्धेन समवायसम्बन्धेन तत्र वृत्तिनियामकत्वं भवति. परन्तु अत्र जगदीश इति तर्कालङ्काराणां मते तु यथा संयोगेन भवति समवायेन भवति विषयतासम्बन्धेन तादृश वृत्तिनियामकत्वं न भवति इति तेषां मतम् अस्ति. तत्र केवलं सम्बन्धं भवति न तु वृत्तिनियामकत्वं भवति.
आधारादेयभावः नास्ति तत्र. तत्र किं वक्तुं शक्नुमः, तेषां मतं किम् अस्ति, तत्र अयं घटः इति ज्ञानं, घटः इति विषयः, तयोः मध्ये सम्बन्धः वर्तते न तु आधारादयभावः वर्तते.
भिन्नमतमस्ति जगदीश तर्कालङ्करणं तेषां.
तत्र गदाधरभट्टाचार्य तत्र
ते वदन्ति तत्र वृत्तिनियामकं भवति आधारादे भवति इति वदन्ति. परन्तु जगदीश भट्टा जगदीश तर्कालङ्कार तादृशं न वदति, सम्मतं नास्ति.
मतं नत्र नाम पुरातननैयायिकाः अपि तत्र नव्यनैयायिकाः तत्र मतभेदं तत्र एतत् पूर्वनैयायिकानां तत्र पुरातननैयायिकानां मतं तत्र वर्तते इति आसीत्, किन्तु नव्य न्यायशास्त्रमतानुसारं नास्ति. तत्र केवलं सम्बन्धः एव अस्ति. आधारादेयभावः तत्र न सिद्ध्यति. आधारादेयभावः न सिद्ध्यति चेत् किं भवत् तर्हि तत्र का स्थितिः?
तत्र तस्य उत्तरमपि दत्तमस्ति. किं तर्हि आधारादेयभावः न सिद्ध्यति चेत् किं तर्हि इति, तत्र केवलं सम्बन्धं भवति द्वयोः मध्ये इति.
हा, केवलं सम्बन्धः एव अस्ति. तौ पदार्थौ सम्बद्धौ, अतः तत्र ज्ञानम् अपि तत्र आत्मा नित्यः इति ज्ञानम् अस्ति चेत् आत्मा नित्यः इति चेत् ज्ञानं तत्र ज्ञान आत्मनौ विषयतासम्बन्धेन सम्बद्धौ. तत्र ज्ञानस्य रूपम् एषः तत्र प्रतीतिः आत्मा नित्यः इति प्रतीतिः अस्ति चेत् तत्र नाम ज्ञानम् एतादृशम् अस्ति चेत् विषयः अस्ति आत्मा, किन्तु विषयः आत्मा इति विषयः अपि तत्र ज्ञानं तयोः मध्ये सम्बन्धः अस्ति, किन्तु तावदेव. अन्यत् किमपि न वक्तुं शक्नुमः.
आत्मा अधिकरणं न प्राप्यते अत्र,
अधिकरणं नास्ति. अतः तत्र ज्ञानं विषयतासम्बन्धेन आत्मनि अस्ति इति न कदापि वक्तुं शक्नुमः नूतनमते नूतनमतानुसारम् इति अस्ति. तत्र न्यायशास्त्रे वर्तते इति यत्र यत्र तत्र तस्य महत्त्वं विशिष्टप्रयोगः अस्ति. अयम् इत्र अत्र वर्तते इति यदि वदामः तत्र अयम् इह वर्तते. यत्र यत्र वर्तते इति वदामः तत्र आधारादेयभावः भवेत् अपि तस्य प्रमाणं भवेत्, नो चेत् वर्तते इति न वक्तुं शक्नुमः. अत्र अतः तत्र वर्तते इति भिन्नम् अस्ति, अस्ति इति भिन्नम्. न्यायशास्त्रे वर्तते इत्युक्ते आधारादेयभावः तत्र अस्ति. अतः तत्र ज्ञानं विषयतासम्बन्धेन आत्मनि वर्तते इति न कदापि वक्तुं शक्नुमः इति नूतनमते मतानुसारम् इति अस्ति. समीचीनम्. अतः बहु किमपि अद्य साधितवन्तः. अग्रे अग्रिमे सप्ताहे अग्रे गच्छामः. तत्र विषयतासम्बन्धस्य समीचीनम् अवगमनं भवति. तदनन्तरं तत्र वयं तत्र परमात्मा अपि जीवात्मा इति तेषां तत्र तेषां तत्र विवरणं पठामः तर्हि. अस्तु, धन्यवादः महोदय.
धन्यवादः
धन्यवादः नमस्कारः. अग्रिमे सप्ताहे मिलामः तर्हि. नमस्कारः.